एष रेडियो नेपाल सम्प्रति समाचारा श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा अद्य आराश्रम श्रावण संक्रान्ति पर्व समायोज्यमानमस्ति। सौरमालानुसारेण सूर्यो दक्षिणायनं प्राप्य सम्प्रति कर्कट रेखायाः उपरि प्राप्नोतीति हेतुः मिथुन राशिः कर्कट राशिं प्रविशति इत्यतश्च दिवसोऽयं कर्कट संक्रान्ति नाम्ना अपि परिचीयते। सौरमानानुसारेण रवि अस्मादेव दिनाद् मास षड्कं यावत् दक्षिणायने तिष्ठति। श्रावण मासादेव वैदिक सनातन धर्मानुसारेण देवानां पितृणाञ्च मुख्यानि पर्वाणि प्रारभ्यन्ते इत्यतश्च श्रावण संक्रान्तिः विशेष रूपेण समायोज्यते। तथैव मासोऽयं भगवतः श्री शिवस्य प्रियतमः अस्ति। यस्मिन् मासे भक्तैः सविधि रुद्राभिषेकादि कार्यं कृत्वा भगवतः शिवस्य पूजाराधने विधीयते। अतः अस्मिन् मासे श्री पशुपतिनाथेन सहैव देशस्य सर्वेष्वपि शिवमन्दिरेषु भक्तानां महान् संवर्धः दृश्यते। तथैव अस्माकं कृषि प्रधान देशे नेपाले आषाढ मासे विहितेन कृषिकर्मणा श्रान्त कृषकैः पंकजातं प्रक्षाल्य स्वकीयैः बन्धुभिः मित्रैः सह तद्दिने प्रमुदावहे वातावरणे भोजनं भुज्यते। आषाढमासे पंकाधिक्यस्य सम्भाव्यात् विस्फोटकादि चर्मरुजो रक्षणस्य उद्देश्येन पर्वेदं समायोज्यते इति लोके विश्वासोऽस्ति। अस्मिन्नेव दिने निम्ब जम्बीर दाढीम प्रभृतिकानि फलानि समर्प्य कण्डारक नामकस्य रक्षसः पूजनात् चर्मरोगस्य प्रकोपात् मुक्तिः प्राप्यते इति विचार्य विविधं वनस्पतिजातं प्रज्वाल्य प्रतिगृहं चतस्रिषु दिक्षु उल्मुखमाध्यमात् चर्मरोग प्रक्षेपण प्रचलनं च वर्तते। सर्वकारेण अनुचिता दान प्रदान कार्यस्य नियन्त्रणाय चक्रवृद्धि धनेन पीडितानां जनानां याचनां सम्बोधयितुं च वार्ता समितिः संघटिता अस्ति। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य उपवेशेन मन्त्रिपरिषदः उपवेशेन प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयस्य सचिवस्य पुष्कर सापकोटाभिदस्य संयोजकत्वे वार्ता समितिः संघटिता अस्ति इति सूचना संचार मन्त्री डा विक्रम तिमिल सिन्हा अज्ञापयत्। मन्त्रिपरिषदः उपवेशेन एकरूप्यकमूल्याया द्विरूप्यकमूल्यायाश्च मुद्राया निर्माणार्थं नेपाल राष्ट्रकोषागाराय स्वीकृतिं प्रदातुं नेपाल विधि सूचना प्रणाल्या स्थापनाय कोरिया देशस्य सर्वकारात् प्राप्यमाणां 1.81 मिलियन अमेरिका देशीय डलर मुद्राम् अनुदान सहयोग रूपेण स्वीकर्तुं च निर्णीतमस्ति। उपवेशेन विभिन्नानां मन्त्रालयानां संघटन संरचना पदस्थानानि च स्वीकर्तुं एतद् विक्रमवर्षीयं नित्यनुसन्धान प्रतिष्ठान विकास समिति प्रथम संशोधनाध्यादेशं स्वीकर्तुं संविदा सेवायां कार्यरतानां कर्मचारिणां व्यवस्थापन सम्बद्धां व्यवस्थां स्वीकर्तुं च निर्णीतमस्ति इति मन्त्री डा तिमिल सिन्हा असूचयत्। प्रधानमन्त्रिणा बालेन्द्र साहेन नेपालस्य महिलोद्योगिषु उद्यमशीलतायाः विकासाय आवश्यकं सहयोगं कर्तुं सर्वकारः प्रतिबद्धोऽस्ति इति उक्तं वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्य महिलोद्यम महान् संघ नेपालस्य पदाधिकारिभिः सह सम्भूते विमर्शने प्रधानमन्त्री शाह महिलोद्यम सन्दर्भे सर्वाणि व्यवधानानि दूरीकर्तुं सर्वकारः प्रयतमानोऽस्तीति चर्चयन् उत्पादनानां प्रवर्धनाय सर्वकारः प्रयत्नशीलोऽस्तीति प्रावोचत्। विमर्शने महासंघस्य प्रतिनिधिभिः निर्भयेन कार्यकरणस्य वातावरणं निर्मातुं वस्तूनि सेवां च राष्ट्रियान्तराष्ट्रिय स्तरेष् प्रापयितुं विशेषस्य कार्यक्रमस्य सञ्चालनं विधातुं निर्यात प्रवर्धन अनिवार्य रूपेण सहभागितां वर्धयितुं च याचना विहिता आसीत्। सम्पत्ति अनुसन्धान आयोगेन सर्वोच्च न्यायालयस्य अन्तरिमादेशानन्तरं सम्पद विवरण संकलनम् अनुसन्धान सम्बद्धं सम्पूर्णं कार्यम् अपरसूचनाया अप्रकाशनं यावत् स्थगितीकृतमस्ति। आयोगेन ह्य सूचनां प्रकाश्य सर्वोच्च न्यायालयस्य आषाढमासस्य 31 दिवसस्य आदेशानुसारेण सम्पद विवरण संकलनानुसन्धानस्य सर्वा प्रक्रिया तत्कालं स्थगितीकृता अस्ति इति ज्ञापितं वर्तते। आयोगस्य अनुसारेण एतत्पूर्वम् आषाढमासस्य 29 दिवसे प्रकाशितायाः सूचनायाः अनुसारेण पूर्व न्यायाधीशानां सांविधानिक आयोगानां पूर्व पदाधिकारिणां नेपाली सेनायाः पूर्व पदाधिकारिणां सार्वजनिक उत्तरदायित्वं वहतां राजनैतिक कर्मिणां कर्मचारिणां च सम्पद विवरण संकलन कार्यं संचाल्यमानम् आसीत्। परम् एतस्या सूचनायाः विरुद्धे पञ्जीकारिते याचिका निवेदने सर्वोच्च न्यायालयेन अन्तरिमादेशं प्रदाय याचिका निवेदनस्य निष्कर्षं यावत् कस्यापि सम्पत्त्यनुसन्धान कार्यं न कर्तुं कारयितुं चादिष्टमस्तीति आयोगेन ज्ञापितं वर्तते। प्रधानमन्त्रिणा बालेन्द्र साहेन सह नेपाल राष्ट्रकोषस्य अधिशासकेन डाक्टर विश्वनाथ पौडेलेन ह्यो मेलवार्ता विहिता अस्ति। प्रधानमन्त्री मन्त्री परिषद कार्यालय ह्य सम्भूते मेलने अनयोर्मध्ये देशे निवेशापणस्य वित्तीय क्षेत्रस्य च विषये सुविमृष्टमस्तीति ज्ञापितम् वर्तते। सार्वजनिक सेवा प्रसारण नेपालस्य संचालक समितौ द्वौ सदस्यौ मनोनीतौ स्तः। सूचना संचार मन्त्री स्तरीयस्य निर्णयस्य अनुसारेण संचालक समितेः सदस्य पदे उर्वशी वस्न्यात् शोभिता रिसालस्य मनोनीतौ स्तः। अध्यक्षस्य नियुक्तेः पूर्वं संचालक समितेः सदस्यायै उर्वशी वस्न्यात् इत्यस्यै उपवेशस्य अध्यक्षतां कर्तुं दायित्वं प्रदत्तमस्ति। द्वाभ्यां सदस्याभ्यां मनोनयन पत्र प्रदान कार्यक्रमे सूचना संचार मन्त्री डाक्टर विक्रम तिमिलसिन्हा, नेपालस्य संचार क्षेत्रस्य विकासे रेडियो नेपालस्य नेपाल टेलिभिजनस्य च ऐतिहासिकं महत्वपूर्णं च योगदानमस्तीति चर्चयन् सार्वजनिक सेवा प्रसारण नेपालेन एतासां संस्थानां गौरवपूर्ण इतिहास अधिक प्रभावरूपेण अग्रे नेतव्य इत्युक्तवान्। उपराष्ट्रपतिः रामसाहेब प्रसाद यादवः कतार देशस्य त्रिदिवसात्मकं भ्रमणं प्रपूर्य ह्य स्वदेशं प्रत्यागतोऽस्ति। उपराष्ट्रपतिः यादवः कतार देशस्य पूर्वराज्ञः शेख अहमद बिन खलीफा अल थानी इत्यस्य निधनं प्रति नेपाल सर्वकारस्य पक्षतः शोक संवेदनां प्रकटयितुं गत मंगलवासरे तत्र उपस्थितवान् आसीत्। उपराष्ट्रपतिः यादवस्य त्रिभुवनन्तर्राष्ट्रिय विमानस्थलस्य विशिष्ट कक्षे परराष्ट्र मन्त्रिणा शिशिर खनालेन स्वागतं विहितमासीत्। भ्रमणस्य क्रमे उपराष्ट्रपतिना यादवेन बुधवासरे कतार देशस्य राज्ञा तमिम बिन हमन अल थानी इत्यनेन सह मेलवार्तां विधाय राष्ट्रपतिना पौडेलेन प्रेषित शोक सन्देशं तस्मै हस्तान्तरित आसीत्। पूर्वार्थ मन्त्रिणा नेकपा एमाले दलस्य उपाध्यक्षेण विष्णु प्रसाद पौडेलेन सहितानां षोडश जनानां विरूद्धे विशेष न्यायालये आरोपपत्रं पञ्जीकारितमस्ति। सम्पद शुद्धिकरणानुसन्धान विभागेन ह्य पौडेलेन सहितानां षण्णां जनानां दश संस्थानाञ्च विरूद्धे आरोपपत्रं पञ्जीकारितमस्तीति ज्ञापितं वर्तते।